एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिः रामचन्द्र पौडेलः उत्पादन जल विद्युत पर्यटन कृषि प्रभृतिषु नेपालस्य प्राथमिकता युतेषु क्षेत्रेषु निवेशं कर्तुं जापान देशस्य निवेशकर्तृन् अनुरुद्धवान् अस्ति। जापान देशस्य औपचारिकी भ्रमणे विद्यमानः राष्ट्रपतिः पौडेलः नेपाल जापान देशयोः कौटनीतिक सम्बन्ध स्थापनायाः सप्ततितमस्य वार्षिकोत्सवस्य अवसरे ह्य आयोजितं समारोहं सम्बोधयन् राजनीतिक विषया निष्कर्ष प्राप्य नेपालस्य प्राथमिकता नेपाली जनतायाः द्रुत सामाजिकार्थिक विकासस्य प्रगतेः समृद्धेश्च प्राप्तये केन्द्रितमस्तीति उक्तवान् इति राष्ट्रपतेः संचार परामर्शदाता किरण पोखरेलः सूचयत्। तदवसरे जापान देशस्य परराष्ट्र राज्यमन्त्री हुरी इवाओ भ्रमणेन द्वयोः देशयोः सम्बन्धम् इतोऽपि प्रगाढं विधातुं महत्वपूर्णा भूमिका निरूह्यते इति प्रावोचत्। ह्य एव जापान देशस्य टोकियो नगरे आयोजिते कार्यक्रमे जापान देशस्य व्यापारिक समुदायानां सदस्ये सह राष्ट्रपतिः पौडेलः नेपाले व्यावसायिकावसरस्य कृते जापान देशस्य वणिजः आहूतवान्। तदवसरे परराष्ट्र मन्त्रालयस्य सचिवः अमृत राई, सहसचिवश्च भृगु ढुंगाना, नेपाले निवेशनस्य सम्भाविताध्ययन विषये प्रस्तुतिं दत्तवन्तौ। राष्ट्रपतिना पौडेलेन सह विदेशमन्त्रिणा ह्यो विहिते शिष्टाचार मेलने राष्ट्रपतिः पौडेलः नेपालस्य सामाजिकार्थिक विकासस्य कृते जापान देशः महत्वपूर्णः विश्वसनीयश्च सहयात्री वर्तते। नेपालस्य विकास प्रक्रियायां जापान देशेन महत्वपूर्ण भूमिका निर्व्यूढा चास्तीति प्रावोचत्। प्रधानमन्त्री सुशीला कार्की निर्वाचनाचार संहितायाः पूर्णपालनां विधाय आगामि निर्वाचनं स्वच्छ भयरहिते च वातावरणे सम्पादयितुं सर्वान् पक्षान् अनुरुद्धवती अस्ति। राष्ट्रियसभायाः ह्यस्तनोपवेशे एतद्विक्रमवर्षीयं राष्ट्रिय सदाचार नीति सम्बद्धम् अध्ययन प्रतिवेदनमाधृत्य विहिते विमर्शने प्रत्युत्तरयन्ती प्रधानमन्त्री कार्की निर्धारिते समये स्वच्छेन निष्पक्षेण विश्वसनीयेन च रूपेण निर्वाचनं सम्पाद्य जननिर्वाचिताय सर्वकाराय सत्ता हस्तान्तरणाय वर्तमान सर्वकारः तत्परोऽस्तीति उक्तवती। प्रधानमन्त्री कार्की सार्वजनिक निकायानां कार्याणि पारदर्शिनी उत्तरदायिनी च विधाय भ्रष्टाचारस्य न्यूनीकरणे सर्वकारः पूर्णतया प्रतिबद्धोऽस्तीति प्रावोचत्। उपवेशे विकासार्थिक विषयेषु शासन समितेः सभापतिः कमलापन्तः एतद्विक्रमवर्षीयं राष्ट्रिय सदाचार नीति सम्बद्धाध्ययन प्रतिवेदनं विमर्शनाय प्रस्तुतवती। प्रतिवेदनमाधृत्य विहिते विमर्शने भागं गृह्णन्तः सांसदाः सबल विकासं शान्तिं च प्राथमिकतायां निधाय कार्यं कर्तुं सर्वेषु स्तरेषु विद्यमानानां सर्वकाराणां सम्मानं विधातुं वैयक्तिक रूपेण सदाचार नीतिं पालयितुं च बलं दत्तवन्तः। राष्ट्रियसभायाः ह्यस्तनोपवेशेन त्रयः अध्यादेशाः स्वीकृताः सन्ति। गृहमन्त्रिणा ओमप्रकाश अर्यालेन प्रस्तुतं त्रिसप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयं मतदातृनामावली सम्बद्धाधिनियमं संशोधयितुं निर्मितः अध्यादेशः एतद्विक्रमवर्षीयः प्रतिनिधिसभा सदस्यानां निर्वाचन सम्बद्ध प्रथम संशोधनाध्यादेशः एतद्विक्रमवर्षीयः नेपाल विशेष सेवाधिनियम सम्बद्धः द्वितीय संशोधनाध्यादेशश्च सभया स्वीकृतोऽस्ति। उपवेशे सभायाः अध्यक्षः नारायण प्रसाद दाहालः राष्ट्रिय सदाचार नीति सम्बद्धे विमर्शने सांसदै उत्थापितेषु विषयेषु प्रधानमन्त्रिणा सुशीला कार्किणा अभिव्यक्तस्य विचारस्य प्रतिवेदने समावेशनं कृत्वा प्राप्तान् परामर्शान् प्राथमिकतायाः आधारेण क्रियान्वयितुं सर्वकारं निर्दिष्टवान्। उपवेशे सार्वजनिक नीति प्रत्यायोजित विधायन समितेः सभापतिः माया प्रसाद शर्मा एतद्विक्रमवर्षीयम् अध्यागमनाधिनियमं तदन्तर्गतं निर्मितं प्रत्यायोजित विधायन सम्बद्धाध्ययन प्रतिवेदनं च सभासमक्षं प्रस्तोत्। राष्ट्रियसभायाः अपरोपवेशः माघमासस्य त्रयोविंशे दिवसे शुक्रवासरे दिवासपादैकवादने अवस्था। निर्वाचनायोगेन निर्वाचनं लक्ष्यीकृत्य प्रसारितानां मिथ्यासूचनानां भ्रामक प्रचारस्य घृणाजन्याभिव्यक्तेश्च अनुगमनं वर्धापितम् वर्तते। आयोगेन निर्वाचनेन सम्बद्धानाम् एवं विधानां सूचनानां संकलनस्य विश्लेषणस्य नियामकस्य च निकायस्य माध्यमेन आवश्यक प्रक्रिया अग्रे वर्धापिता अस्ति। नियामक निकायेन सह सहकार्यं कृत्वा आयोगेन सूचना सदाचार निकायं संघटय कार्यं विधीयमानमस्तीति संसूचितं वर्तते। आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधि सभायाः सदस्यानां निर्वाचनस्य समानुपातिक निर्वाचन प्रणाल्यः गोप्य सूचितः 67 जनानां नामानि अपसारितानि वर्तन्ते। राजनीतिक दलैः प्रस्तुतानां प्रत्याशिनां नाम्नां गोप्य सूचीनां निर्वाचन आयोगेन अनुसन्धानानन्तरं 67 नामानि निरसयितुं निर्णीतमस्तीति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई ह्यो विज्ञप्तिं प्रकाश्य सूचितवान् वर्तते। समानुपातिक निर्वाचनाधिकृत कार्यालयेषु प्राप्तानां निवेदनानाम् अध्ययनानन्तरं प्रचलित निर्वाचन विधौ निर्धारितः प्रत्याशिनां योग्यता आयोगस्य निर्णयः राजनीतिक दलेभ्य प्राप्त सूचना स्थिति विषयानाधृत्य प्रत्याशिनां नामानि अद्यावधिकृतानि सन्तीति आयोगस्य विज्ञप्तौ संसूचितं वर्तते। प्रधानमन्त्री सुशीला कार्की नेपाले विद्यमानः सर्वापि भाषाः देशस्य सम्पदः सन्तीति चर्चयन्ति तासां संरक्षणाय बलं ददाति। प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य भाषायोगेन निर्मिते पृथक् पृथक् द्वे प्रतिवेदने गृह्णन्ति प्रधानमन्त्री कार्की भाषायाः संरक्षणे बलं दत्तवती। भाषायोगस्य अध्यक्षस्य गोपाल ठाकुर इत्यस्य नेतृत्वस्य आयोगस्य प्रतिनिधिमण्डलेन मातृभाषा शिक्षा सम्बद्धं प्रतिवेदनम् अन्तर्राष्ट्रिय आदिवासी भाषा दशक सम्बद्धं नेपालस्य राष्ट्रिय कार्ययोजना क्रियान्वयन सम्बद्धं प्रतिवेदनं च प्रधानमन्त्रिणः कार्किणः समक्षं प्रस्तुतम् आसीत्। स्वास्थ्य सुरक्षण कोष समित्या स्वास्थ्य सुरक्षण सम्बद्धं वित्तं न्यूनीकृतम् इति विषयस्य भ्रामक सूचनायाः प्रसारणं प्रति गभीरं ध्यानाकर्षणं सम्भूतमस्ति इति ज्ञापितं वर्तते। सन्दर्भेऽस्मिन् पूर्वेद्युः समित्या सार्वजनिक सूचनां प्रकाश्य स्वास्थ्य सुरक्षण कोषे आबद्धैः परिवारैः प्राप्यमाणा स्वास्थ्य सुरक्षण वित्तसेवा यथावदस्ति इति संसूचितं वर्तते। समित्या स्वास्थ्य सुरक्षण कोषे आबद्धैः परिवारैः प्रतिवर्षं निर्धारिते 1,00,000 रूप्यकाणां स्वास्थ्योपचार वित्ते बहिरङ्ग सेवायाः प्रयोगं मितव्ययेन न्यायोचितं च विधाय व्यवस्थापनं कर्तुं प्रति परिवारं 25,000 अतिरिक्त सदस्यानां कृते 5,000 अवशिष्टं वित्तं अन्तरंग सेवायै आकस्मिक चिकित्सा सेवायै च निर्धारितमस्तीति स्पष्टीकृतं वर्तते। भारतदेशे प्रसृतस्य निपाह विषाणोः संक्रमणस्य नेपाले न्यूनत्वेऽपि सावधानताम् अवलम्बितुं स्वास्थ्य जनसंख्या मन्त्रालयेन अनुरुद्धमस्ति। ह्य विज्ञप्तिं प्रकाश्य मन्त्रालयान्तर्गतया संक्रामक रोग नियन्त्रण महाशाखया प्रतिवेशिदेशस्य घटनाम् अवलोक्य पूर्वकार्यं विधातुम् आराष्ट्रं विद्यमानाः स्वास्थ्य संस्थाः निकायाञ्च सावधानाः विधाय निपाह विषाणोः परीक्षणस्य कृते अन्तरिम पूर्वकार्यं विधीयमानमस्ति इति ज्ञापितम् वर्तते। इति समाचारः।